वासोपनिषद पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः। ईशावास्यमिदगुं सर्वं यत्किञ्च जगत्यां जगत् तेन त्यक्तेन भुञ्जीतामाघृधकस्य स्विद्धनम् कुर्वन्नेवेह कर्माणि जिजीविषेच्छतगुं समाः एवं त्वयि नान्यत्ते तोऽस्ति न कर्म लिप्यते नरे। असूर्या नाम ते लोका अन्धेन तमसा आवृताः तागुंस्ते प्रेत्या विगच्छन्ति एके चात्महनो जनाः। अने जदेकं मनसो जवीयो नैन देवा तत्तावतो अन्यानत्येति तिष्ठत्तस्मिन् नभो मातरिष्वा ददाति तदेजति तन्नेजति तद्दूरे तद्वान्तिके तदन्तरस्य सर्वस्य तदुसर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्वभूतेषु चात्मानं ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवा भूद्विजानतः तत्र को मोह कशोक एकत्वमनुपश्यतः सपर्यगाच्छुक्रमकायमव्रणमस्नाभिरघुं शुद्धमपापविद्धम् कविर्मनीषी परिभू स्वयं भूयातत्यथोत्थान जनदाच्चाश्वतीभ्यः समाभ्यः। अन्धं तम प्रविशन्ति ये अविद्यामुपासते भूय इव ते तमो यौ विद्यायाघुं रताः अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया इति शुश्रुमधीराणाम्येनस्तद्विच चक्षिरे विद्यां च विद्यां च यस्तद्वेदो वयगुं सः अविद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्नुते। अन्धं तम प्रविशन्ति ये असम्भूतिमुपासते ततो भूय इव ते तमो यौ सम्भूत्यागुं रताः अन्यदेवाहुसम्भवात् अन्यदाहुरसम्भवात् इति शुश्रुमधीराणाम्येनस्तद्विच चक्षिरे सम्भूतिं च विनाशं च यस्तद्वेदोभयगुं सः विनाशेन मृत्युं तीर्त्वा सम्भूत्या अमृतमश्नुते। हिरण्मयेन पात्रेण सत्यस्यापि हितं मुखम् तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये पूषन्ने कर्षेयमसूर्यप्रा
शांति शांति शांति।